एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ कथयति रेडियो नेपालस्य नेपाल टेलिभिजन संस्थानस्य च एकीकरणाय निर्मितम् सार्वजनिक सेवा प्रसारण विधेयकम् शीघ्रमेव संसदा पारितीकरिष्यते। राष्ट्रिय समाचार समितेः नेपाली भाषाया समाचार सेवा प्रसारणस्य चतुर्विंशत्यामेव घण्टासु शुभारम्भ समारोहे पूर्वे द्युः मन्त्री गुरूङ मीडिया काउन्सिल विधेयकमपि सहमत्या अग्रे नेष्यते इति असूचयत। कार्यक्रमे संचार सूचना प्रविधि मन्त्रालयस्य सचिव राधिका अरियालः सीमित स्रोत साधनेषु सत्स्वपि समित्या देश विदेशेषु विद्यमानान् सेवाग्राहिणा लक्ष्यीकृत्य चतुर्विंशत्यामेव घण्टासु सेवाया प्रारम्भम् गौरवपूर्णमस्तीति अवोचत। कार्यक्रमे नेपाल पत्रकार महासंघस्य पूर्वाध्यक्ष शिव गाउँले बारखरी अनलाइन पत्रिकाया सम्पादक प्रतीक प्रधान समिति कार्यकार्याध्यक्ष धर्मेन्द्र झा च राष्ट्रिय समाचार समित्याभिहितम् योगदानम् अचर्चयन्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री प्रसाद पाण्डे निगदति नैज क्षेत्रस्य कार्यक्षेत्रम् विस्तार्य पर्यटन क्षेत्रस्य प्रवर्धनाय सक्रियेण प्रवर्त्यते। काष्ठमण्डपे ह्य आयोजिते पर्यटन सम्बद्धाया टान नाम्न्या संस्थाया षट्चत्वारिंशत् तम्याम् वार्षिक साधारण सभायाम् मन्त्री पाण्डे संस्कृति पर्यटन नागरिकोड्डयन क्षेत्रस्य विकासाय प्रवर्धनाय च नैज क्षेत्रस्य भूमिका अपरिहार्यास्तीति अभाषत। मन्त्री पाण्डे उड्डयन क्षेत्रम् सुरक्षितम् विधातुम् नियामकम् सेवा प्रदायकम् च निकायम् पृथक् कर्तुमानितम् विधेयकम् अर्थ मन्त्रालयात् विधि मन्त्रालयम् प्रेषितम् अस्तीति असूचयत्। गण्डकी प्रदेशस्य चतुर्भिः मन्त्रिभिः शपथग्रहणम् विहितम् अस्ति। नेकपा एमाले दलस्य पक्षतः चतुर्णाम् मन्त्रिणाम् नियुक्त्या सहैव ह्य आयोजिते विशेष समारोहे गण्डकी प्रदेशस्य प्रमुखः तान् दिल्लीराज भट्ट पदगोपनीयतयो शपथम् अग्राहयत्। तत्र पद्मजीषी श्रेष्ठाय भूमि व्यवस्था सहकारी मन्त्रालयस्य प्रकाश केसी इत्यस्मै भौतिक पूर्वाधार विकास यातायात मन्त्रालयस्य कृष्ण पाठकाय स्वास्थ्य मन्त्रालयस्य मित्रलाल बस्यालाय उद्योग पर्यटन मन्त्रालयस्य च दायित्वम् निर्धारितम् वर्तते। मन्त्रालयस्य आवंटने असन्तोषम् प्रकटयन् गण्डकी प्रदेशस्य वन वातावरण मन्त्रिणा राजीव गुरूङ इत्यनेन त्यागपत्रम् प्रदत्तम् वर्तते। मुख्यमन्त्री सुरेन्द्र राज पाण्डे ह्य मन्त्रिपरिषदि परिवर्तनम् विहितवान्। तस्मिन् क्रमे गुरूङ इत्यनेन निर्व्यूढः भौतिक पूर्वाधार मन्त्रालयः एमाले दलस्य भागे गुरूङ इत्यस्य भागे च वनवातावरण मन्त्रालयः निर्धारितः आसीत्। अत्र क्रमे मन्त्री गुरूङ असन्तोषम् प्रकटयन् ह्य एव मुख्यमन्त्रिणः पाण्डेभिधस्य समक्षम् त्यागपत्रम् दत्तवान् वर्तते। गुरूङ इत्यस्य त्यागपत्रम् मुख्यमन्त्रिणा पाण्डेभिधेन ह्य एव स्वीकृतम् अस्तीति मुख्यमन्त्रिणः संचार संयोजकः नरहरि पौडेलः असूचयत्। सर्वकारेण उद्यम ऋण प्रवाहस्य प्रारम्भणाय त्रिपक्षीय संविधा विहितास्ति। उद्योग वाणिज्य आपूर्ति मन्त्रालय ह्य औद्योगिक व्यवसाय विकास प्रतिष्ठानेन राष्ट्रिय वाणिज्य कोषागारेण निक्षेप ऋण सुरक्षण कोषेण च सह उद्यम ऋण प्रवाहस्य प्रारम्भणाय त्रिपक्षीय संविधा पत्रे हस्ताक्षराणि सम्पन्नानि सन्ति। कार्यक्रमे उद्योग वाणिज्यापूर्ति मन्त्री दामोदर भण्डारी सर्वकारेण ऋण प्रवाहस्य प्रारम्भणाय एकाब्जानाम् रूप्यकाणाम् कोषः निर्मितोऽस्ति। उद्यमम् परियोजनाञ्च न्यासरूपेण मत्वा अधिकाधिकम् पञ्चविंशति लक्षाणि रूप्यकाणि यावत् ऋणम् प्रदास्यते इति असूचयत्। मन्त्री भण्डारी ऋण प्रवाहस्य कृते कार्यविधेः विधिः पारितोऽस्ति। अनलाइन प्रणाल्या नवोद्यमीभिः ऋणस्य कृते आवेदनम् प्रदातुम् शक्यते इति च अज्ञापयत्। नेपालस्यैव एव स्रोतसाधनानि प्रयुज्य युवसन्ततिं विदेशगमनात् रोद्धुम् आन्तरवृत्त्युपार्जनं प्रदातुं च ऋणप्रवाहस्य प्रारम्भम् विधीयमानमस्ति। कार्यमेतत् प्रभावकारि सम्पादयिष्यते इति च मन्त्री भण्डारी असूचयत्। सर्वकारेण नवीनतमोद्यमशिल्पक्षमता प्रयुज्य उद्यमस्य कृते विभिन्नानि क्षेत्राणि निर्धारितानि वर्तन्ते। तेषु कृषि सेचन पक्षक्षेत्राणि तथैव उत्पादनमूलकोद्यम मूलौषध वनोत्पादन पर्यटन मनोरञ्जन विज्ञान प्रविधि संचार सूचना शिक्षा सुरक्षित यातायात अवकर व्यवस्थापन प्रवृत्तिनि च उद्यमस्य क्षेत्राणि ऋण प्रवाहस्य कृते निर्धारितानि वर्तन्ते। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड कथयति नेपालगंज स्थानीयैकीकृत सुरक्षानुसन्धान केन्द्रम् अतिरिक्तं प्रभावकारि विधातुम् आवश्यक प्रयासः विधीयते। माओवादी केन्द्रस्य लुम्बिनी प्रदेश स्तरीयान्तर प्रशिक्षणस्य क्रमे नेपालगंज स्थाने विद्यमानः अध्यक्ष प्रचण्ड ह्य केन्द्रस्य अवलोकनं विदधानः गौरवयुत संरचनाम् अतिरिक्तं प्रभावकारिणीं विधातुं प्रयतिष्यते इति प्रतिबद्धतां व्यक्तवान्। एकीकृत सीमा सुरक्षा केन्द्रस्य सर्वेषु सीमा प्रवेश बिन्दुषु निर्माणस्य सर्वकारस्य नीतिरस्तीति चर्चयन् अध्यक्ष प्रचण्ड प्रथमचरणे निर्मितैः एकीकृत सीमा सुरक्षा केन्द्रैः कतिपय समस्या सोढव्याः सम्भवन्तीति अगदत्। अज्ञात रोगस्य कारणेन बांके जनपदस्य नरेनापुर ग्रामपालिकायाम् एकस्यैव परिवारस्य त्रयो जनाः एकः अन्यश्चेति संहत्य चत्वारो जना मृताः सन्ति। नरेनापुर ग्रामपालिकायाः तृतीयवडा क्षेत्रस्य गिगली ग्रामे अज्ञात रोगस्य कारणेन चत्वारो जना मृताः वर्तन्ते इति नरेनापुरवर्तिनः स्वास्थ्य कार्यालयस्य प्रमुख नागेन्द्र कुमार शाह असूचयत्। इति समाचाराः।